परन्तु मोहं सान्द्रं मे हृदयगतं प्रसह्य सद्यः
तन्वाना विनतहितं विरोधिवर्गम् धुन्वाना भुतजनमोदमादधाना सम्राज्ञी धृतिवधरा रसातलाना रुद्राणि भणतु शिवानि मत्कुलस्य
सर्वं कामारे सुदति न तस्य भुव्य साध्यम्
कालाभ्रद्युतिमसमानवीर्यसारां शक्त्यूर्मि भ्रमकर शुक्लघोरदंष्ट्रां यो धीरो मनसि दधाति भर्गपत्नी त्वामस्य प्रभवति सङ्गरेषु शस्त्रम्
शिरस्सु फुल्लजाजी माला माधरणि जुषो वशे भवन्तः
यो रागाशशधरकान्तिसारशुभ्रां बिभ्राणां करकमलेन पुस्तकं त्वां भूतेशं प्रभुमस्मृत् प्रबोधयन्तीं ध्यायेद्वाग्भवति वशेष्य नाकधूती
जानीमो भगवति भक्तचित्तवृत्तेः तुल्यं त्वं सपदि दधासि रूपमग्रयं प्रश्नोऽयं भवति नगाधिनाथ कन्ये रूपं ते मदयति कीदृशं स्मरारिम्
चारुस्यादलमिति वक्तुमम्ब शक्यं रूपं ते न वदति कोऽपि कीदृशं वा सम्मोहं परमुपयान्ति कान्तिभाण्डे कामारेरपि नयनानि यत्र दृष्टे
कीदृशं मणीनां किं रूपं भवति च तत्र योजितानां
यान्यङ्गान् अखिलमनोज्ञसारभूतानि एतेषामपि किमु भूषणैरुमेते आहोऽस्विल्लितमानि भान्ति भूयो भूषाभिर्विकृततमाभिरप्यमूनि
मुक्ताभिर्भवति तवाम्ब किन्तु हारः पीयूषद्युतिकरसार निर्मलाभिः मुण्डैर्वाघलघलशब्दमादधद्भिः सङ्घर्षात्रिभुवन सार्वभौम
वस्त्रं स्याद्यति तव सर्वशास्त्रगम्ये कार्पासं दिवि च तदुद्भवोऽनुमेयः क्षौमं चेद्भगवति तस्य हेतुभूताः ईटास्युर्गगन जगत्यपीतिवाच्यम्
मनसि परं हितानां कामं ते भवति समर्पकः समर्थः
सुस्कन्धो बहुविटपः प्रवालशोभी संफुल्ल प्रसव सुगन्धवासिताशः वृक्षः किं भगवति कल्पनामकोऽयं सङ्कल्पः किमु तव कोऽपि देवि सत्यः
त्ववीर्यं कारुण्या तव भुवि चास्य नाकभाग्यम्
आपीनं भवति सहस्रपत्रकञ्जं वत्सोऽस्याः पटुतर मूलकुण्डवह्निः दोग्धात्मा दहरः सरोरुहोपविष्टो मौनं स्यात् सुरसुर मेस्तनूषु दोहः
मात्मा संतृप्तो न भवति दुर्भरोस्य कुक्षिः
वत्सोऽग्निः पिबति दृढाङ्घ्रिरम्ब पश्चात् अश्रान्तं पिबति दुःखं पुरोन्तरात्मा वृद्धिं च व्रजति पयः प्रति प्रदोहम् दोग्ध्यास्ते द्रव इह कुण्डलिनि अपारः
सोमस्य ध्रुवमिमम् आहुरं न केचिच्च दुग्धाधीरमृतरसं ददन्ति केऽपि बाष्पं केऽप्यभिदधते तु कौलकुण्डं पीनोधस्रवमितरे भणन्ति धेनु
मूले त्वं ज्वलतनलप्रकाशरूपा वीणायां प्रबल महामदोष्मरूपा शीर्षाब्जे सतत गलत्रसस्वरूपा भूमध्ये भवसि लसत्तटित्स्वरूपा
शतपत्रमद्रिपुत्री स्याश्चेत्त्वं भणसि जगत्सुधा समुद्रम्
नेत्राभ्यां सरसि रुगच्छदायताभ्यां वक्त्रेण प्रविमलहासभासुरेण प्रत्यक्षा मम मनसः पुरः पुरन्ध्री कामारे परिणतमस्मदीय भाग्यम्
पुण्यानां परिणतिरेव भूतभक्तुः सिद्धानां बलनिधिरेव कोऽपि गूढः भक्तानां दृढतरिरेव शोकसिन्धौ मग्नानां मम जननी महीध्रपुत्री
उद्धर्तुं विनतजनं विषादगर्तात् संस्कर्तुं भुवनहिताय योगयुक्तं संहर्तुं कलकुलमुद्धतं चतर्पाद् भर्गस्य प्रियतरुणी सदा सदीक्षा।
मृद्वीका मधुरतया सुधा महिम्ना गाम्भीर्यात् सुरतटिनीं च निर्जयन्ती शर्वाणि चरितपरा प्रहर्षिणीनां श्रेणीयं जयतु गणेश्वरेण बद्धा।